अभीष्टफलदं देवं सर्वज्ञं सुरपूजितं अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम्। बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः, कर्णौ सुरगुरुः पातु नेत्रे मे भीष्टदायकः। जिह्वां पातु सुराचार्यो नासा मे वेदपारगः, मुखं मे पातु सर्वज्ञो कण्ठं मे देवता गुरु। भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः, स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः। नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः, कटिं पातु जगद्वन्द्य पूरु मे पातु वाक्पतिः। जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा, अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः। इत्येतत् कवचं दिव्यं त्रिसन्ध्यं यः पठे नरः, सर्वान् कामान् वाप्नोति सर्वत्र विजयी भवेत्।